इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। केन्द्रीय गृहमन्त्रिणा अमित शाहेन उक्तम् यत् नरेन्द्र मोदी सर्वकारः नवीनैः उपायैः आतंकवादिनां दमनं कृत्वा उदाहरणं स्थापयितुं प्रतिबद्धः अस्ति। ह्यः नवदिल्ल्यां जम्मूकश्मीरस्य सुरक्षास्थितेः समीक्षायै उच्चस्तरीय सभायाः अध्यक्षतां कुर्वन् सः सर्वेभ्यः सुरक्षासंस्थाः मिशन मोड रूपेण कार्यं कर्तुं समन्वितरूपेण त्वरित प्रतिक्रिया सुनिश्चेतुं च निर्देशं प्रदत्तवान्। जम्मूकश्मीरे आतंकवादविरुद्धं युद्धं निर्णायकस्तरे अस्ति इति सः प्रकाशितवान्। श्रीशाहः अवदत् यत् साम्प्रतिक घटनाभिः माध्यमेन द्रष्टुं शक्यते यत् आतंकवादः आतंकवादिनां हिंसायाः अत्यन्तं संगठित कार्यात् केवलं निम्नयुद्धं यावत् एव संकुचितः अभवत्। श्रीशाहः जम्मूकश्मीरे मतदातृणाम् अभिलेखात्मकं मतदानं दृष्ट्वा लोकसभानिर्वाचनस्य सफलसञ्चालनस्य कृते सुरक्षाबलानां जम्मूकश्मीर प्रशासनस्य च प्रशंसाम् अकरोत्। गृहमन्त्री अमितशाहः अमरनाथयात्रायाः सज्जतायाः अपि समीक्षां कृतवान्। वार्षिकयात्रा अस्य मासस्य ऊनत्रिंशद्दिनांकादारभ्य अगस्तमासस्य ऊनविंशतिदिनांकपर्यन्तं भविष्यति। केन्द्रीय शिक्षामन्त्रिणा धर्मेन्द्र प्रधानेन उक्तं यत् अस्मिन् वर्षे राष्ट्रिय पात्रता सह प्रवेश परीक्षा नीट परीक्षायाः संचालने अनियमिततायाः दोषिणः न प्राप्यन्ते चेत् एनटीए इत्यस्य दोषी अधिकारिणः दण्डिताः भविष्यन्ति। ओडिशायाः सम्बलपुरे वार्ताहरैः सह संवादे सः अवदत् यत् द्वयोः पक्षयोः एव दोषः इति। सः अवदत् अस्मिन् विषये सर्वकारः चिन्तितः अस्ति, कोऽपि अपराधी न मुक्तः भविष्यति। राष्ट्रपति द्रौपदी मुर्मू ईद उल अजहा पर्वे जनान् अभिवादनं कृतवती। स्वसन्देशे राष्ट्रपतिना उक्तं यत् ईद उल अजहा पर्व पवित्रः पर्व त्यागस्य बलिदानस्य च प्रतीकः अस्ति। राष्ट्रपति उक्तवती यत् उत्सवः अयं प्रेम्णः भ्रातृत्वस्य सामाजिक सौहार्दस्य च सन्देशं प्रददाति। राष्ट्रपति मुर्मू उक्तवती यत् उत्सवः जनान् मानवतायाः निस्वार्थ सेवायां प्रवर्तुं प्रेरयति। ह्यः भारत कम्बोडिया देशयोः मध्ये प्रथमवारं प्रत्यक्ष विमानयानं प्रारब्धम्। कम्बोडिया देशस्य उपप्रधानमन्त्री नेत सवोन कम्बोडिया देशे भारतीय राजदूता देवयानी खोबरागढ़े च अस्य विमानस्य आधिकारिकरूपेण उद्घाटनं कृतवन्तौ। कम्बोडिया देशे भारतीय दूतावासेन सामाजिक संचार माध्यमेन एकस्मिन् सन्देशे उक्तं यत् एतत् प्रयासः प्रथम पर्यटन वर्षस्य आरम्भं करोति। पर्यटनेन जनसम्बन्धं सम्पर्कं च वर्धिष्यति। दूतावासेन भारतस्य एक्ट ईस्ट नीतिः इति उद्धृत्य एतद् विकासस्य ऐतिहासिक क्षणः इति प्रवदता प्रशंसा कृता। द्वयोः देशयोः मध्ये एतद् विमानं सप्ताहे चतुर्वारं कम्बोडिया देशस्य राष्ट्रिय ध्वजवाहकेन कम्बोडिया अंगकोर एयर इत्यनेन संचालितं भविष्यति। मुम्बई अन्ताराष्ट्रिय चलचित्र महोत्सवस्य रेड कार्पेट इति कार्यक्रमः अद्य नवदिल्ल्यां भवितुं निश्चितः अस्ति। अष्टमः मुम्बई अन्ताराष्ट्रिय चलचित्र महोत्सवः MIFF अन्य नगरेषु प्रथमवारं आयोजितं भविष्यति। मुम्बई नगरेण सह दिल्ली कोलकाता चेन्नई पुणे नगरेषु समानान्तर प्रदर्शनानि भविष्यन्ति इति वार्ताः।